बहिर्लुठतीद्यपि स्फुटदनन्तशक्तिः स्वयं तथाप्यपरवस्तुनो विशति नान्यवस्त्वन्तरं स्वभावनियतं यतः सकलमेव वस्तुविश्यते स्वभावचलनाकुलः किमिह मोहितः क्लेश्यते।